सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतं. प्रथमतया अहम् एकं श्लोकं वदामि. कोटिभारः समर्थानां किं दूरं व्यवसायिनां, को विदेशः सविद्यानां, कः परः प्रियवादिनाम्. इत्युक्ते समर्थानां कः अतिभारः, व्यवसायिनां किं दूरं, सुविद्यानां विदेशः कः, प्रियवादिनां कः परः. इत्युक्ते अत्र अस्मिन् श्लोके चत्वारः विषयाः उक्ताः. चत्वारः विषयाः के इत्युक्ते अत्र शक्तिमतां पुरुषाणां कृते किमपि भारः नास्ति, कोऽपि भारः नास्ति. किमर्थं चेत् सः शक्तिमान्, तदर्थं सः तस्य कृते कोऽपि भारः नास्ति. तथा एव व्यवसायिनः पुरुषस्य दूरं किमपि नास्ति. इत्युक्ते यः सर्वदा परिश्रमं करोति तस्य कृते किमपि दूरं नास्ति. इत्युक्ते सः यावत् दूरं गन्तुमिच्छति तावत् प्रयत्नेन एव गन्तुं शक्नोति. तथा एव विद्यावतां पुरुषाणां कृते विदेशः अथवा परदेशः कोऽपि नास्ति. इत्युक्ते यदि विद्यावान् पुरुषः विदेशं गच्छति तर्हि तत्रापि सः आदरं प्राप्तुं शक्नोति. तत्र कारणं किम् इत्युक्ते केवलं तस्य विद्या एव कारणम्. अपि च चत्वारः विषयः अस्ति प्रियवादिनाम्, इत्युक्ते यः सर्वदा प्रियवाक्यानि वदति तस्य कृते सर्वे जनाः प्रियबान्धवाः भवितुं शक्नुवन्ति. तत्र कारणं किम् इत्युक्ते केवलं तस्य प्रियवाक्यानि एव कारणं. तदर्थं संस्कृतभाषायाम् एकः अन्यः श्लोकः अपि अस्ति, प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति दन्तवः, अतः वचने का दरिद्रता इति एकः श्लोकः अस्ति. परन्तु एतादृशरीत्या जीवनयापनं कर्तुं शक्यं वा इति वयं चिन्तनं कुर्मः चेत् तत्र किमपि कष्टं नास्ति. परन्तु केवलम् उपरि उक्तान् विषयान् साधयितुं किञ्चित् प्रयत्नम् आवश्यकं, प्रयत्नः आवश्यकः. ईदृशानि सुभाषितानि संस्कृतभाषायां बहूनि सन्ति, तेषाम् अवगमनार्थं भाषायाः अवगमनम् आवश्यकं. तदर्थं वयं सर्वे मिलित्वा अत्र संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः. उत्तमम्. अनन्तरम् अत्र गते सप्ताहे वयं च एव इति अपि, इत्युक्ते एतेषां चतुर्णां पदानां विषये किञ्चित् पठितवन्तः. परन्तु अस्माकम् अवगमनं कथमस्ति इति ज्ञातव्यम्. अधुना तेषां विषये किञ्चित् चिन्तनं कृत्वा अग्रे अभ्यासपुस्तके किमस्ति इति एकवारं पश्येम. अत्र भवन्तः सर्वे स्वस्य वाक्यैः एतानि चत्वारि पदानि योजयित्वा वाक्यानि रचितवन्तः इति अहं चिन्तयामि. प्रथमतया वाक्यानि श्रावयन्तु, तदनन्तरं वयम् अभ्यासपुस्तकं प्रति गच्छेम. प्रथमतया अत्र उमाशङ्करमहोदय, भवान् श्रावयतु अत्र वाक्यानि कानि. च एव इति अपि योजयित्वा.
जय, अयं संस्कृतमेव पठितवान्. अयं सारि, मम संस्कृतमेव पठितवान्.
अत्र महोदय संस्कृत संस्कृतभाषायाम् अहम् इति पदमस्ति. अयम् अयम् इति अपि अस्ति. अयम् इत्युक्ते अत्र एषः इति अर्थः. परन्तु अत्र अहम् इति पदम् अस्मत् शब्दः इति वदामः. अहं संस्कृतमेव पठितवान्. उत्तमम्.
अहं मम मित्र चलचित्रं गतवान्.
मम मित्रेण सह मम मित्रेण सह
भावना
महोदय तदेव वाक्यम् एकवारं वदतु तदेव वाक्यम्
अहं मित्रेण सह चलचित्रं दृष्टवान्
तत् समीचीनं वाक्यं मम मित्रेण सह चलनचित्रं द्रष्टुं गतवान् अथवा दृष्टवान् तत्र द्रष्टुं मित्रेण सह चलनचित्रं द्रष्टुं गतवान् इति अपि समीचीनं नो चेत् चलनचित्रं दृष्टवान् अथवा अहं मित्रेण सह चलनचित्रमन्दिरं गतवान् तथा वक्तव्यम् इत्युक्ते अत्र अत्र तथा एव वक्तव्यं वाक्यं वदतु
ओके That's all I didn't practice that
one. सर्वे एकवारं ध्वनिमुद्रणं शृण्वन्तु अत्र ध्वनिमुद्रणं शृणुमः चेत् किञ्चित् तत्र लाभः एव उत्तमं महोदय अनन्तरम् अत्र कादम्बरी भगिनी भवती श्रावयतु
मम माता पितामहिः च देवालयं गच्छन्ति मम गृहे मम
भगिनी प्रथमं वाक्यं पुनः एकवारं श्रावयतु प्रथमं वाक्यम्
अस्तु मम माता पितामहिः च देवालयं गच्छन्ति
पितामही वा पितामहः वा तत्र पुरुषः अस्ति वा महिला अस्ति
पितामहः
पितामहः पुरुषः अस्ति चेत् पितामहः इति वदामः महिला अस्ति चेत् पितामही इति वदामः पितामही च मन्दिरं गतवन्तः गच्छन्ति उत्तमं
मम गृहे मम माता पितामही पितामहः च सन्ति
सन्ति उत्तमम्
अहम् अभ्यासपुस्तकं गीताप्रवेशः च पठामि अहं पुस्तकं लेखनी अङ्कनी मार्जनी च उपयोगं करोमि
उत्तमं वाक्यं
माला सीता अमृता च विद्यालयं गच्छन्ति
इत्युक्ते अत्र सर्वाणि वाक्यानि च योजयित्वा लिखितवती वा अनन्तरम् अत्र त्रीणि अन्यानि पदानि सन्ति
आम् अहं जानामि भगिनि पद्मिनी गीतं गायति रामकृष्णः अपि गीतं गायति रामः उत्तमः लक्ष्मणः अपि उत्तमः
सुन्दरं
सा भागवतं पठति सा रामायणम् अपि पठति मम पितामही तेलुगु हिन्दी च भाषाः जानाति सा
भाषाः जानाति तस्मिन् वाक्ये भाषाः इति पदस्य विभक्तिः का
अहं न जानामि
उत्तमं भगिनि, भवती यदुक्तवती तत्तु सुन्दरं वाक्यं, समीचीनतया लिखितवती. तत्र केवलं स्पष्टीकरणार्थं पृच्छामि. अत्र भाषाः जानाति, अत्र भाषाः, तस्मिन् वाक्ये भाषाः इति पदस्य वचनं भवती जानाति एव. वचनं किम्? बहुवचनं भाषाः, बहुवचनं. परन्तु अत्र जानाति इति पदमस्ति. साधन जानाति ज्ञाधातुः सकर्मकधातुः इति कृत्वा तत्र कर्मपदं भवति. तस्मिन् वाक्ये कर्मपदं भवति. अतः विभक्तिः का? अत्र भाषाः इति पदस्य विभक्तिः का का किं भवितुमर्हति? तत्र साधारणतया कर्मपदम् इत्युक्ते विभक्तिः का? कर्मपदस्य विभक्तिः द्वितीया. इत्युक्ते तस्मिन् वाक्ये भाषाः इति पदस्य विभक्तिः द्वितीया विभक्तिः. तदेव वाक्यं पुनः श्रावयतु.
अस्तु. मम पिता मही तेलुगु हिन्दी च भाषाः जानाति.
उत्तमं. तत्र भाषाः इति पदस्य विभक्तिः द्वितीया विभक्तिः. किं जानाति? भाषाः जानाति. काः काः भाषाः जानाति? तत्र नामानि वक्तव्यानि. उत्तमम्.
सा कन्नडा भाषा अपि जानाति.
भाषा अपि जानाति.
भाषा अपि जानाति.
उत्तमम्. इत्युक्ते अत्र भाषा इति पदं भवती जानाति एव. भाषा इति पदम् आकारान्तस्त्रीलिङ्गपदम्. उत्तमम्.
अहं युद्धं कर्तुं न गच्छामि इति अर्जुनः कृष्णं वदति. भवती किमर्थम् अभ्यासं न कृतवती इति मम माता पृच्छति. अमृता गीतम् एव गायति. मालवी सत्यम् एव वदति. गीता पाकमेव करोति.
पाकमेव करोति. उत्तमम्. इत्युक्ते पाकमेव करोति, सा न पठति, सा केवलं पाकमेव कर्तुमिच्छति. तथा तत्र अर्थः तादृशरीत्या अस्ति. उत्तमम्. अनन्तरं
तावदेव.
तावदेव. उत्तमानि वाक्यानि, सुन्दराणि वाक्यानि. उत्तमम्. अनन्तरम् अत्र लक्ष्मीभगिनी भवती श्रावयतु.
लते अद्य मम गृहम् आगच्छतु. किमर्थं भवत्याः गृहम् आगमिष्यामि? अद्य मम पुत्र्याः जन्मदिनम्, अतः सर्वे मम गृहम् आगमिष्यतु. के
सर्वे? सर्वे आगमिष्यन्तु. सर्वे इति पदं बहुवचनरूपं, सर्वशब्दस्य बहुवचनरूपं सर्वे. अतः आगच्छन्तु.
के आगमिष्यन्ति? राधा सीता रमा कृष्णा च आगमिष्यन्ति. माता अपि आगच्छामि इति उक्तवती. भवत्याः भगिनी आगमिष्यति वा? सा न आगच्छति एव. तस्याः गृहे अपि कार्यक्रमः अस्ति. एवं वा? सः कार्यक्रमः, तस्याः गृहे पूजा अस्ति, तर्हि सा न आगच्छति एव.
सम्भाषणं भवति, सम्भाषणं लिखितवती इत्युक्ते एतानि चत्वारि पदानि योजयित्वा लक्ष्मीभगिनी सम्भाषणमेव लिखितवती. उत्तमम्. अनन्तरम् अत्र सुचित्रा भगिनी भवती श्रावयतु.
आं भगिनि. माता, हे अञ्जु, गृहपाठं कृतवती वा? आम्, अहं गृहपाठं सङ्गीतस्य अभ्यासम् अपि कृतवती. सम्यक्. कोऽपि खादति वा? आम्, खादामि, परन्तु फलं मिष्टम् एव खादामि इति उक्तवती. फलं मिष्टं शाकं च ददामि. हे राम, इदानीं कोऽपि स्वतन्त्रं न अस्ति.
भगिनि, अत्र भगिनि, अत्र मिष्टम् इत्युक्ते किम्? अत्र मिष्टान्
स्वीट्.
ओ, मधुरः. अस्तु, मधुरम् इत्युक्ते अत्र मृष्टान्नम् इति वक्तुमिच्छति वा? मधुरं
मिष्टं, मिष्टः, मिष्टम्.
मिष्टम्, मिष्टमित्युक्ते स्वीट् इति उक्तवती वा? अत्र अहं श्रुतवती केवलं मधुरम् अथवा मृष्टान्नम् इति वदामः. अस्तु, अनन्तरम्
इदानीं
तावदेव वा? अनन्तरम्. उत्तमं. राजसिंह महोदय, भवान् श्रावयतु.
भगिनी, अहं ध्वनिमुद्रणं श्रुतवान् परन्तु गृहपाठं न श्रुतवान्.
अनन्तरम् अत्र 205470 अत्र कस्याः दूरवाणीसङ्ख्या? अत्र हेमा भगिनी वा? अत्र कोऽपि अन्यः अस्ति विलम्बेन? कः अस्ति अत्र? 205470-0824 कस्याः दूरवाणीसङ्ख्या?
भावना भगिनी.
भावना. अस्तु, भवती अपि वक्तुं शक्नोति वा भगिनी? नो चेत् केवलं शृणोति वा?
ऐ ट्रैड् बट् नाट् गुड् प्रिपरेशन् यट्.
अस्तु, अस्तु. इत्युक्ते अत्र शृणोतु भगिनी. अस्तु, इदानीं पर्यन्तं वयं केवलं च एव इति अपि एतानि पदानि योजयित्वा वाक्यानि कथं रचनीयानि इति एव दृष्टवन्तः. सर्वेषां कृते अहम् एकं श्लोकं वदामि. सर्वे तत्र उत्तमः श्लोकः. अत्र श्लोकः अस्ति, यस्माच्च येन च यदा च यथा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म तस्माच्च तेन च तदा च तथा च तच्च तावच्च तत्र च विधातृवशादुपैति. किमर्थम् उक्तवती एतत् श्लोकम्? एषः श्लोकः इत्युक्ते अत्र अस्मिन् श्लोके च इति पदं बहुवारम् आगतम्. अस्मिन् श्लोके च इति पदम् अनेकवारम् आगच्छति. तदर्थम् एतत् श्लोकम् एषः श्लोकः उत्तमः श्लोकः. परन्तु अस्य अर्थः कः इति भवन्तः सर्वे एकवारं पुनः श्लोकं श्रुत्वा गूगल् कुर्वन्तु. गूगल् कुर्वन्ति चेत् अर्थः कः इति वयं भवन्तः ज्ञातुं शक्नुवन्ति. अनन्तरम् अधुना अत्र वयं किं कुर्मः इत्युक्ते, अभ्यासपुस्तके अग्रिमविषयः अस्ति तत्र तः पर्यन्तं. सर्वे अत्र अभ्यासपुस्तकम् एकवारं पश्यन्तु. इदानीं पर्यन्तं वयं 15.2 अभ्यासं कृतवन्तः. अत्र 16.1 आभागे तः पर्यन्तम् इति एकः अभ्यासः अस्ति. तम् अभ्यासम् अधुना कुर्मः. अत्र लक्ष्मीभगिनी भवती वदतु, अद्यतन अस्माकं नूतनविषयः अस्ति तः पर्यन्तम् इति पदद्वयम् अस्ति. लक्ष्मी भगिनी भवती वदतु, अस्माकं संस्कृतकक्ष्या कदा आरभ्य कुत्र पर्यन्तं भवति, अस्माकं संस्कृतकक्ष्यायाः समयः कः वदतु?
मम संस्कृतकक्ष्यायां अष्टवादनतः दशवादनपर्यन्तं चलति.
प्रचलति इत्युक्ते अत्र अस्माकं संस्कृतकक्ष्या प्रति मङ्गलवासरे रात्रिवेलायां सार्ध अष्टवादनतः दशवादनपर्यन्तं प्रचलति इति, इत्युक्ते तः पर्यन्तम् इति वयं जानीमः एव. अभ्यासपुस्तके वयं पूर्वस्मिन् पुटे तत्र पेज् 34 तत्र चतुस्त्रिंशत्तमे पुटे तत्र वयं किं पठितवन्तः तस्मिन् पुटे तत्र ततः कुतः इतः अपि च कुतः ततः इतः एतानि पदानि वयं ज्ञातवन्तः तत्र तस्मिन् पुटे पेज् 34 तत्र वयं किं पठितवन्तः. शङ्करः बेङ्गलूरुतः शृङ्गेरीं गतवान्, शङ्करः शृङ्गेरीतः धर्मस्थलं गतवान्, एतानि वाक्यानि वयं पठितवन्तः. परन्तु अद्य वयं तः पर्यन्तम् इति पदद्वयं ज्ञास्यामः, पदयुगलम् अथवा पदद्वयं ज्ञास्यामः. साधारणतया बालकाः कदा विद्यालयं गच्छन्ति वदतु?
छात्राः प्रतिदिनं अष्टवादन अष्टवादनतः चत्वारि पर्यन्तं पाठशालां
गच्छन्ति. उत्तमं. तत्र किं वदामः चतुर्वादनपर्यन्तं, चत्वारि न वदामः, तत्र सङ्ख्यां वयं पठितवन्तः एकं द्वे त्रीणि चत्वारि. परन्तु अत्र यदि वयं समयः कः इति वदामश्चेत् तत्र किं वदामः चतुर्वादनपर्यन्तं, त्रिवादनपर्यन्तं, द्विवादनपर्यन्तं तदा वदामः. इत्युक्ते साधारणतया छात्राः प्रातः अष्टवादनतः सायं चतुर्वादनपर्यन्तं विद्यालयं गच्छन्ति. तथा एव केचन जनाः कदा कार्यालयं गच्छन्ति, कार्यालये कुत्र पर्यन्तं तिष्ठन्ति?
अहं
प्रातःकाले
अष्टवादनतः पञ्चवादनपर्यन्तं, सायङ्काले पञ्चवादनपर्यन्तं कार्यालये कार्यं करोमि.
उत्तमं. कार्यालये कार्यं करोमि, उत्तमं वाक्यम्. इत्युक्ते भवती अवगतवती एव अत्र तः पर्यन्तं योजयित्वा कथं वाक्यं लेखनीयम् इति भवती अवगतवती. अत्र अस्माकं कार्यम् अत्र अधुना किमस्ति इत्युक्ते अभ्यासपुस्तके अत्र नारायणः नाम्ना एकः पुरुषः अस्ति, तस्य दिनचर्या का, हिस् डेलि रुटीन् का, तस्य दिनचर्या का इति अत्र दत्तमस्ति. इत्युक्ते नारायणः प्रतिदिनं किं किं कदा करोति, कदा आरभ्य कुत्र पर्यन्तं सः किं किं कार्यं करोति, कार्याणि सः करोति इति दत्तमस्ति. इत्युक्ते अत्र एकं कोष्टकमस्ति, कोष्टकं वा अथवा समयसारणी इति वदामः. समयसारणी इत्युक्ते किं भगिनि वदतु?
टैम् टेबल्.
अस्मिन् पुटे नारायणस्य समयसारणी, तस्य दिनचर्या लिखिता अस्ति. तां दिनचर्यां दृष्ट्वा वाक्यानि लिखतु इति दत्तमस्ति. पठतु भगिनी, अत्र किं दत्तमस्ति?
अत्र नारायणस्य दिनचर्या लिखिता अस्ति, तां दृष्ट्वा वाक्यानि लिखतु.
अत्र एकवारं पश्यतु, अत्र सूचना दत्ता. अत्र दिनचर्या लिखिता इति उक्तमस्ति. किमर्थं तथा भवती वक्तुं शक्नोति वा?
दिनचर्या डेलि रुटीन्.
आम्, डेलि रुटीन्. परन्तु अत्र लिखिता इति पदमस्ति. लिखिता इति पदं किं वदामः इत्युक्ते, संस्कृतभाषायां क्तान्तरूपम् इति वदामः. लिखिता इति पदं स्त्रीलिङ्गपदम्, अपि च दिनचर्या इति अपि स्त्रीलिङ्गपदम्, आकारान्तपदम्. अत्र दिनचर्या लिखिता इत्युक्ते दिनचर्या इति पदस्य विशेषणं लिखिता इति दत्तम्. नारायणस्य विभक्तिः का भगिनि, वदतु?
षष्टिविभक्ति.
अत्र द्वितीयं वाक्यमस्ति, तां दृष्ट्वा इति उक्तमस्ति. तां दृष्ट्वा इत्युक्ते कां दृष्ट्वा?
दिनचर्या.
किं वक्तव्यं, कां दृष्ट्वा वाक्यानि लिखतु? अत्र किं वदामः, दिनचर्यां दृष्ट्वा. दिनचर्यां, नारायणस्य दिनचर्यां दृष्ट्वा वाक्यानि लिखतु. पठतु अधुना. सः किं करोति?
नारायणः प्रातःकाले षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति.
अत्र अस्मिन् पुटे केवलं समयसारणी दत्तमस्ति, परन्तु अग्रिमे पुटे तत्र वाक्यानि दत्तानि. उदाहरणत्वेन अग्रिमे पुटे उदाहरणत्वेन प्रथमं वाक्यम् अस्माकं कृते पूर्वमेव लिखितमस्ति. पठतु.
नारायणः षड्वादनतः 7:15.
अत्र भवती पठितुं शक्नोति वा? अत्र संख्याः संस्कृतभाषायां सन्ति. अत्र संस्कृतभाषायाम् अत्र षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति, तत् प्रथमं वाक्यम् अस्माकं कृते पूर्वमेव अस्ति. द्वितीयं करोतु.
Yes, 7:15 I don't know how to say.
किं वदामः, वयं समयः इति पाठं पठितवन्तः, किं वदामः? 7:15 इत्युक्ते
सपाद सप्तवादन.
सुन्दरं सुन्दरं, वदतु भगिनि. नारायणः
सपाद सप्तवादनतः सपाद अष्टवादनपर्यन्तं विद्यालये पठति.
उत्तमम्. अहम् एकं प्रश्नं पृच्छामि, पूर्वस्मिन् वाक्ये योगासनम् इति पदं दत्तमस्ति, बहुवचने बहुवचनरूपं किं? योगासनम् इति पदस्य बहुवचनरूपं सुमित्रा भगिनी, सुचित्रा भगिनी वदतु.
योगासनम् एकवचनं, बहुवचन योगासनानि.
उत्तमम्. योगासनानि. अनन्तरम् अत्र द्वितीयं वाक्यं भवती उक्तवती, अत्र किम् उक्तवती, पुनः एकवारं वदतु तदेव वाक्यम्.
सपादसप्तवादनतः सपाद अष्टवादनपर्यन्तं
किं करोति?
विद्यालये नारायणन् विद्यालये पठति.
अत्र द्वितीयं वाक्यं गृहपाठं लिखति उक्तवती वा? गृहपाठं लिखति अत्र नारायणः गृहपाठं लिखति इति एकं वाक्यम् अस्मिन् वाक्ये कर्मपदं किम्
गृहपाठं
गृहपाठम् उत्तमं गृहपाठम् इति पदस्य प्रथमाविभक्त्यन्तरूपं किं
गृहपाठः गृहपाठं गृहपाठम्
आं गृहपाठः इति प्रथमाविभक्तिरूपं द्वितीयाविभक्तिरूपं गृहपाठं किमर्थं चेत् तत्र कर्मपदं लिखति किं लिखति गृहपाठं लिखति इति अस्ति अग्रिमं वाक्यं करोतु
दशवादनतः पञ्चवादनपर्यन्तं विद्यालये पठति
अत्र अत्र दशवादनतः सायं पञ्चवादनपर्यन्तं विद्यालये पठति अस्मिन् वाक्ये कर्मपदमस्ति वा
कर्मपदं विद्यालये सः विल् बि कर्तृपदम्
सः नारायणः इति कर्तृपदं परन्तु अस्मिन् वाक्ये कर्मपदम् अस्ति वा
सब्जेक्ट्
तृतीये वा तृतीये वाक्ये
सप्तमी वा विभक्ति विद्यालये
इत्युक्ते अस्मिन् वाक्ये कर्मपदं नास्ति
अस्ति
सः कुत्र पठति
विद्यालये पठति
विद्यालये पठति उत्तमं सः किं लिखति
गृहपाठं लिखति
कदा आरभ्य लिखति
सपादसप्तवादनतः सपाद अष्टवादनपर्यन्तं गृहपाठं लिखति
गृहपाठं लिखति अनन्तरं चतुर्थं वाक्यं करोतु
पञ्चवादनतः षड्वादनपर्यन्तं क्रीडति सायङ्काले सायङ्काले पञ्चवादनतः षड्वादनपर्यन्तं क्रीडति
कः क्रीडति
नारायण
अतः पूर्णं वाक्यं वदतु
नारायण सायङ्काले पञ्चवादनतः सायङ्काले अष्टवादनपर्यन्तं क्रीडति
अत्र पश्यतु भगिनि अत्र सङ्ख्याः दत्ताः अत्र पञ्चवादनतः कदा क्रीडति नारायणः
कदा पञ्चवादनतः षड्वादनपर्यन्तं
परन्तु किमर्थम् उक्तवती अष्टवादन इति उक्तवती किमर्थम् वदतु अत्र अस्माकं कृते सङ्ख्याः अत्र संस्कृतभाषायाम् अपि सन्ति अपि च अत्र आङ्ग्लभाषायाम् अपि सन्ति अत्र इत्युक्ते नारायणः उत्तमं नारायणः पञ्चवादनतः षड्वादनपर्यन्तं क्रीडति परन्तु सर्वे एकम् अत्र अवगच्छन्तु क्रीडति इति पदम् अकर्मकक्रियापदं तत्र कर्मपदं न सम्भवति परन्तु लिखति पठति तत्र कर्मपदं सम्भवति इत्युक्ते लिख् धातुः सकर्मकधातुः पठ् धातुः अपि सकर्मकधातुः परन्तु क्रीड् धातुः अकर्मकः अतः अनन्तरम् अग्रिमं पञ्चमं वाक्यं किं वदतु
सार्धषट्वादनतः नारायणन् सार्धषट्वादनतः सार्धसप्तवादनपर्यन्तम् अध्या अध्ययनं करोति.
अध्ययनं करोति.
अध्ययनं करोति.
सः अध्ययनं करोति. तस्य नाम किम्?
नारायणः.
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 न तु नारायणन्. न अत्र पदमस्ति नारायणः, यथा रामः तथा एव अत्र नारायणः. नारायणः कदा कदा किं किं करोति इति अत्र दत्तमस्ति. ओ, अन्तिमं वाक्यं भवती एव करोतु.
नारायणः दशवादनतः रात्रिदशवादनतः प्रातःकाल पञ्चवादनपर्यन्तं निद्रां करोति.
अत्र किं दत्तमस्ति? निद्रां करोति.
निद्रां करोति.
उत्तमं. सः रात्रिवेलायां दशवादनतः प्रातः पञ्चवादनपर्यन्तं निद्रां करोति. उत्तमम्. अत्र निद्रा इति पदम् आकारान्तपदम्. निद्रा इति प्रथमाविभक्त्यन्तरूपं, निद्रां द्वितीयाविभक्त्यन्तरूपं. परन्तु अत्र करोति, करोति इति पदं क्रु इति धातुतः आगच्छति. क्रु धातुः सकर्मकधातुः, अतः कर्मपदं स्वीकरोति. अहम् एकं प्रश्नं पृच्छामि भगिनि, भवती कदा संस्कृत अध्ययनं करोति?
अहं प्रतिदिनं दशवादनतः एकादशवादनपर्यन्तं संस्कृतं पठामि.
एकादशवादनपर्यन्तम्?
एकादशवादनपर्यन्तम्.
उत्तमम्. एकादशवादनपर्यन्तं करोति. अपि च भवती कदा निद्रां करोति?
अहं रात्रि दशवादनतः शुभ प्रातःकाल षट्वादनपर्यन्तं निद्रां करोमि.
उत्तमम्. उत्तमम्. इत्युक्ते तः पर्यन्तं योजयित्वा वयं षड् वाक्यानि दृष्टवन्तः. अधुना वयं किं कुर्मः, अत्र अभ्यासपुस्तके एव 16.1 आभागे अत्र अन्यः अभ्यासः अस्ति, तम् अभ्यासं कुर्मः अधुना. राजीव महोदय, भवान् करोतु अत्र अभ्यासम्.
आं भगिनि. अत्र कर्णाटक मुख्यमन्त्रिणः कार्यक्रमस्य विवरणम् अस्ति, तत् दृष्ट्वा सः कदा कुत्र तिष्ठति इति
लिखतु.
इति लिखतु.
अत्र पश्यतु महोदय, मुख्यमन्त्रिणः इति दत्तमस्ति. यदि भवान् जानाति चेत् तस्य रूपं किं वदतु. मन्त्रिणः, कर्णाटकमुख्यमन्त्रिणः इति पदमस्ति. कोऽपि जानाति वा अस्माकं कक्षायां?
कर्णाटक चीफ् मिनिस्टर्स् स्केड्यो.
अस्तु महोदय, आङ्ग्लभाषायां तत्तु समीचीनमेव. परन्तु अत्र पश्यन्तु, सर्वे पश्यन्तु, अत्र मन्त्रिणः इति पदं दत्तमस्ति. तत्र मन्त्रिणः इति दत्तमस्ति. किमर्थं चेत् तत्र संस्कृतभाषायां मन्त्री ईकारान्तपदं, मन्त्री इति पदमस्ति. पदं नकारान्तपदं, तत्र मूलरूपमस्ति मन्त्रिन्. तस्य मूलरूपं, प्रातिपदिकं मूलरूपं मन्त्रिन् नकारान्तपदं. प्रथमाविभक्त्यन्तरूपं मन्त्री भवति. परन्तु अत्र मन्त्री शब्दस्य षष्टिविभक्त्यन्तरूपं दत्तमस्ति.
आं भगिनि.
यथा किं वदामः, रामस्य इति वदामः, तथा एव अत्र मन्त्रिणः.
मन्त्रिणः
मुख्यं. मन्त्रिणः इति पदं षष्टिविभक्त्यन्तरूपम्.
आं भगिनि.
कर्णाटकमुख्यमन्त्रिणः कार्यक्रमस्य विवरणं, कार्यक्रमस्य विभक्तिः का महोदय वदतु?
षष्टिविभक्ति.
उत्तमं. तत्र कार्यक्रमस्य विवरणं दत्तमस्ति, तत् दृष्ट्वा सः कदा कुत्र तिष्ठति मुख्यमन्त्री, कदा कुत्र तिष्ठति इति, कुत्र तिष्ठति इति अत्र अत्रापि टैम् टेबल् दत्तमस्ति अथवा समयसारणी दत्तमस्ति. समयसारणीं दृष्ट्वा हिस् स्केड्यूल् इस् गिवेन् हियर्. By looking at his schedule, we are supposed to write a few sentences. Karotu Mahodaya.
Aam Bhagini. January ekah ek ekah ta saptah paryantam mukhyamantri Bangaluru nagre tishtati.
Atra kim vadamaha Mahodaya? पश्यतु एकवारम् अत्र किं वदामः इत्युक्ते, कर्णाटकमुख्यमन्त्री जनवरी मासस्य प्रथमदिनाङ्कतः
कर्णाटकमुख्यमन्त्री जनवरी एकः सः
प्रथमदिनाङ्कतः
प्रथमदिनाङ्कतः सप्तदिनाङ्के पर्यन्तं
सप्तदिनाङ्कपर्यन्तं
बेङ्गलूरुनगरे तिष्ठति.
कुत्र तिष्ठति सः
कर्णाटकमुख्यमन्त्री?
कः तिष्ठति इत्युक्ते मुख्यमन्त्री तिष्ठति, परन्तु कुत्र तिष्ठति सः?
बेङ्गलूरुनगरे.
अत्र बेङ्गलूरुनगरे विभक्तिः का?
सप्तमी विभक्ति.
सुन्दरं. सः प्रथमदिनाङ्कतः सप्तमदिनाङ्कपर्यन्तं बेङ्गलूरुनगरे तिष्ठति. तदनन्तरं
मुख्यमन्त्रीः
जनवरी मासे
अष्टदिनाङ्कतः त्रयोदशदिनाङ्के पर्यन्तं मैसूरुः नगरे तिष्ठति.
अत्र किञ्चित् समीकृत्य पुनः तदेव वाक्यं वदतु. कथं वक्तव्यम् इत्युक्ते, कर्णाटकमुख्यमन्त्री जनवरीमासस्य अष्टमदिनाङ्क जनवरीमासस्य अष्टमदिनाङ्कतः त्रयोदशदिनाङ्कपर्यन्तं मैसूरुनगरे तिष्ठति. तथा वदतु.
कर्णाटकः मुख्यमन्त्री जनवरी मासस्य एकदिनाङ्कतः सप्तदिनाङ्कः पर्यन्तं मैसूरुनगरे तिष्ठति.
अत्र भवान् द्वितीयं कृतवान् वा अथवा तृतीयं कृतवान् वा? मैसूरुनगरे. अत्र पश्यतु, अष्टमदिनाङ्कतः त्रयोदशदिनाङ्कपर्यन्तम्
अष्टदिनाङ्कतः त्रयोदशदिनाङ्कः पर्यन्तं मैसूरुनगरे तिष्ठति.
उत्तमम्. अग्रिमं.
कर्णाटकमुख्यमन्त्री जनवरी मासस्य चतुर्दशदिनाङ्कतः सप्तदशदिनाङ्कः पर्यन्तं
धारवाड नगरे
तिष्ठति. कर्णाटकमुख्यमन्त्री जनवरी मासस्य अष्टादशदिनाङ्कतः विंशतिः दिनाङ्कः पर्यन्तं गुलबर्गनगरे तिष्ठति.
गुलबर्गनगरे तिष्ठति. अग्रिमं करोतु.
कर्णाटकमुख्यमन्त्री जनवरी मासस्य एकविंशतिः दिनाङ्कतः चतुर्विंशतिदिनाङ्कः पर्यन्तं कोलार् नगरे तिष्ठति. कर्णाटकमुख्यमन्त्री जनवरी मासस्य पञ्चविंशतिः दिनाङ्कतः त्रिंशत् दिनाङ्कः पर्यन्तं मद्रास् नगरे तिष्ठति.
नगरे तिष्ठति. उत्तमम् उत्तमं महोदय. धन्यवादः. अनन्तरं पुनः एकवारं तदेव सम्यक् अभ्यासं कुर्मः. अत्र कादम्बरी भगिनी भवती करोतु एतत् अभ्यासं पुनः एकवारं करोतु. अत्र
अस्तु
भवती एव करोतु.
जनवरी एकतः
अत्र किं भगिनि पश्यतु, अत्र किं वदामः इत्युक्ते एकं द्वे त्रीणि तथा वदामः, परन्तु प्रथमदिनाङ्कः द्वितीयदिनाङ्कः तृतीयदिनाङ्कः तथा वदामः.
अस्तु. जनवरी प्रथम
दिनाङ्कः पश्यतु, अत्र दिनाङ्कः इति इत्युक्ते डेट्, परन्तु दिनाङ्कतः
दिनाङ्कतः सप्तमी सप्तमी पर्यन्तं
सप्तमदिनाङ्कपर्यन्तं
मुख्यमन्त्री बेङ्गलूरुनगरे तिष्ठति.
उत्तमं प्रथमं वाक्यम्. अनन्तरं लक्ष्मी भगिनी भवती करोतु द्वितीयं वाक्यं.
कर्णाटकमुख्यमन्त्री
अत्र पश्यन्तु, सर्वे पश्यन्तु, अत्र पदमस्ति, पुनः एकवारं वदामि, नकारान्तपदं, परन्तु मुख्यमन्त्री इति अस्ति, यथा नदी शब्दवत्, परन्तु तत्र विसर्गः नास्ति, तथा मन्त्री इति वक्तव्यं, मुख्यमन्त्री, परन्तु प्रातिपदिकं रूपम् अस्ति मन्त्रिन्, नकारान्तपदं, प्रथमाविभक्त्यन्तरूपं ईकारान्तं मन्त्री इति भवति, तत्र विसर्गः नास्ति. वदतु.
कर्णाटकमुख्यमन्त्री जनवरी मासस्य अष्टम दिनाङ्कतः त्रयोदश दिनाङ्कपर्यन्तं मैसूरुनगरे तिष्ठति.
उत्तमं. सुचित्रा भगिनी भवती तृतीयं करोतु.
कर्णाटकमुख्यमन्त्री जनवरी चतुर्दशदिनाङ्कतः सप्तमी दश दिनाङ्कपर्यन्तं धारवाड नगरे तिष्ठति.
इत्युक्ते अत्र किं वदामः, चतुर्दशदिनाङ्कतः अनन्तरं सप्तदशदिनाङ्कतः
सप्तदशदिनाङ्कपर्यन्तं धारवाडनगरे तिष्ठति.
उत्तमं, तथा वक्तव्यम्. अनन्तरम् अत्र उमाशङ्करमहोदय भवान् करोतु अग्रिमं वाक्यं.
कर्णाटकमुख्यमन्त्री जनवरि मासे सप्तदशदिनाङ्के
महोदय अत्र पश्य न अत्र पश्यतु, अत्र किं दत्तमस्ति, 18 इति दत्तमस्ति. किं वदामः 18 इत्युक्ते संस्कृतभाषायां किं वक्तव्यम्?
अष्टादश.
अष्टादशदिनाङ्कतः
अष्टादशदिनाङ्कतक विंशतिदिनकपर्यन्तं गुल्बर्गानगरे तिष्ठति.
गुल्बर्गानगरे तिष्ठति. अनन्तरम् अत्र राजसिंह महोदय भवान् करोतु पुनः एकवारम् अग्रिमम्. अत्र पञ्चमं वाक्यं
पञ्चमं. ओके, कर्णाटकमुख्यमन्त्री जनवरी मासस्य एकविंशतिदिनाङ्कतः चतुर्विंशतिः दिनाङ्कः पर्यन्तं कोलारनगरे तिष्ठति.
कोलारनगरे तिष्ठति. उत्तमम् उत्तमं महोदय. अनन्तरम् अन्तिमं वाक्यं कादम्बरी भगिनी भवती करोतु, षष्ठं वाक्यम्.
अस्तु भगिनि, जनवरी
मासस्य पञ्चविंशतितमदिनाङ्कतः
त्रिंशत् त्रिंशत्तम दिनाङ्कपर्यन्तं मुख्यमन्त्री मद्रास् नगरे तिष्ठति.
उत्तमं, परन्तु दीर्घं वाक्यं. पुनः एकवारं तदेव वाक्यं वदतु.
जनवरी पञ्चविंशतितमदिनाङ्कतः त्रिंशत्तमदिनाङ्कपर्यन्तं मुख्यमन्त्री मद्रास् नगरे तिष्ठति.
मद्रास् नगरे तिष्ठति. उत्तमम्. अत्र पश्यन्तु सर्वे, अत्र तिष्ठति इति पदमस्ति. तिष्ठति इति पदं तत्र तिष्ठति इति क्रियापदं, परन्तु तत्र क्रियापदस्य मूलरूपं धातुः इति वदामः. तत्र धातुः अस्ति स्था धातुः. स्था धातोः लट्लकाररूपम् अथवा वर्तमानकालरूपं तिष्ठति. परन्तु अत्र स्था धातुः अकर्मकधातुः, अतः अस्मिन् वाक्ये कर्मपदं नास्ति. अत्र कति वाक्यानि सन्ति भगिनी वदतु. कादम्बरी भगिनी
षड्वाक्यानि सन्ति
षड्वाक्यानि सन्ति परन्तु एतेषु षट्सु वाक्येषु कुत्रापि कर्मपदं नास्ति अत्र कर्मपदं न अत्र वाक्येषु कर्मपदानि न सन्ति प्रत्येकस्मिन् वाक्ये केवलम् अत्र मैसूरुनगरे धारवाडनगरे गुल्बर्गानगरे कोलारनगरे मद्रासनगरे इति दत्तमस्ति इत्युक्ते सप्तम्यन्तरूपं दत्तमस्ति इत्युक्ते कुत्र सः कुत्र तिष्ठति मैसूरुनगरे तिष्ठति कदा तिष्ठति प्रथमदिनाङ्कतः सप्तमदिनाङ्कपर्यन्तं बेङ्गलूरुनगरे तिष्ठति अत्र एतेषु षट्सु वाक्येषु कुत्रापि कर्मपदं नास्ति किमर्थम् इत्युक्ते अत्र स्थाधातुः अकर्मकधातुः स्थाधातोः लट्लकाररूपं तिष्ठति तदर्थम् अकर्मकधातुः इति कृत्वा तत्र कर्मपदं न सम्भवति इति अस्माभिः अवगन्तव्यं वि नीड् टु नो दट् रीज़न् उत्तमम् अनन्तरम् अत्र इतोपि किञ्चित् अभ्यासं कुर्मः सर्वे एकवारम् अत्र करपत्रं दत्तमस्ति प्रथमं करपत्रं पश्यन्तु अत्र गीतासोपानात् गीतासोपानं पुस्तकात् उद्धृतं करपत्रं सर्वे एकवारं करपत्रं पुरतः स्थापयन्तु तत्रापि तः पर्यन्तं तत्र एकः अभ्यासः अस्ति अधुना अत्र लक्ष्मीभगिनी भवती पठति वा अत्र नगरदर्शनं कदा इति उपरि शीर्षिका अस्ति
एतां विनोद
तदेव
I don't see the heading there. I don't see the title there.
Oh, drashtum na shaknuti va. Itchukta atra sirshika asti nagara darshanam kada. Oh, atra na drishit. Oh, astu. Paranta atra taha pariyantam iti uktam asti. Bhavati drashtum shaknuti va? Taha pariyantam?
Taha pariyantam.
अत्र सूचनां पठतु
एतां विनोदकणिकां पठत्
विनोदकणिका इत्युक्ते किम्
जोक्
अत्र संस्कृतभाषायां जोक् अस्ति पठतु भगिनि जोक् पठतु
कश्चन ग्रामीणः नगरदर्शनार्थ महानगरं गतवान् यदा बुभुक्षा जाता तदा सः एकं भोजालयं गत्वा पृष्टवान् अत्र भोजनस्य अल्पाहारस्य च समयः कः इति तदा भोजनालयस्वामी उक्तवान् प्रातः सप्तवादनतः एकादशवादनपर्यन्तम् अल्पाहारः मध्याह्ने द्वादशवादनतः त्रिवादनपर्यन्तं भोजनं सायं पञ्चवादनतः रात्रौ दशवादनपर्यन्तं रात्रिभोजनम् इति एतस्य श्रवणानन्तरं सः ग्रामीणः पृष्टवान् महाशय यदि एतावान् कालः अल्पाहारार्थं मध्याह्ने भोजनार्थं रात्रिभोजनार्थं च भवति तर्हि मम नगरदर्शनं कदा भविष्यति इति
इत्युक्ते भवती पठितवती परन्तु अत्र अत्र किं दत्तमस्ति एकवारं चिन्तनं कुर्मः अत्र एतां विनोदकणिकां पठत इति दत्तमस्ति. अत्र भवती वक्तुं शक्नोति चेत् वदतु भगिनि, एताम् अत्र विभक्तिः का?
द्वितीय.
उत्तमम् उत्तमं, परन्तु लिङ्गं किम्?
स्त्रीलिङ्गं.
सुन्दरं सुन्दरं भगिनी, कादम्बरी भगिनी, उत्तमम्. इत्युक्ते स्त्रीलिङ्गं. किमर्थं स्त्रीलिङ्गम् इत्युक्ते अत्र विनोदकणिका आकारान्तपदमस्ति. विनोदकणिका इत्युक्ते जोक्. एतां विनोदकणिकाम् इत्युक्ते अत्र एताम् इति पदं सर्वनामपदम्. विनोदकणिका इति पदस्य कृते सर्वनामपदम् अपि च विशेषणमपि वक्तुं शक्नुमः, परन्तु अत्र विनोदकणिकाम् इति द्वितीया विभक्ति, एकवचनम् अपि च स्त्रीलिङ्गपदं, तदर्थम् अत्र सर्वनामपदम् अपि स्त्रीलिङ्गे अस्ति. अत्र पठत इति दत्तमस्ति, भवती वक्तुं शक्नोति वा रूपं किम्? कादम्बरी भगिनी वक्तुं शक्नोति वा? तत्र किञ्चित् क्लेशः अस्ति, परन्तु इदानीं पर्यन्तं वयं लट्लकारः इत्युक्ते वर्तमानकालः, अपि च लोट्लकारः इति वयं ज्ञातवन्तः. अत्र लोट्लकारः मध्यमपुरुष बहुवचनम् इति वदामः. पठत, अग्रे गत्वा वयं पठिष्यामः, चिन्ता नास्ति. अत्र अत्र विनोदकणिकायां किं दत्तमस्ति? कश्चन ग्रामीणः नगरदर्शनार्थं महानगरं गतवान्. कः गतवान् भगिनि वदतु?
ग्रामीणः
गतवान्. कुत्र गतवान्?
महानगरं गतवान्.
किमर्थं गतवान्?
नगरदर्शनार्थं गतवान्.
उत्तमम्. एकः ग्रामीणः नगरदर्शनार्थं महानगरं गतवान्. तदा किम् अभवत्? यदा बुभुक्षा जाता तदा सः भोजनालयं गत्वा पृष्टवान्. बुभुक्षा, श्रुतवती वा? इत्युक्ते किम् बुभुक्षा? उत्तमम् उत्तमं. संस्कृतभाषायां कानिचन पदानि सन्ति. पदानि कानि इत्युक्ते भोक्तुम् इच्छा बुभुक्षा, पातुम् इच्छा पिपासा, कर्तुम् इच्छा चिकीर्षा, मोक्तुम् इच्छा मुमुक्षा, तथा पदानि सन्ति. तथा एव ज्ञातुम् इच्छा जिज्ञासा, एतानि विशिष्टपदानि. इत्युक्ते एतेषां नाम अस्ति सन्नन्त सन् प्रत्ययान्तरूपाणि इति वदामः. अत्र पदं दत्तमस्ति बुभुक्षा. बुभुक्षा इत्युक्ते भोक्तुम् इच्छा, डिज़ैर् टु ईट्. भोक्तुमिच्छा बुभुक्षा इति वदामः. अत्र किम् अभवत्? यदा बुभुक्षा जाता तदा सः किं कृतवान्? एकं भोजनालयं गत्वा पृष्टवान्. किं पृष्टवान् वदतु?
भोजनस्य अल्पाहारस्य समयः इति.
अत्र च इति किमर्थमस्ति?
भोजन एण्ड् ब्रेक्फास्ट्.
इत्युक्ते भोजनस्य अपि च अल्पाहारस्य च समयः कः इति पृष्टवान्. कं पृष्टवान्?
भोजनालय स्वामी.
किं वदामः तत्र? किं वदामः इत्युक्ते भोजनालयस्वामिनं पृष्टवान् इति वदामः. किमर्थमित्युक्ते स्वामी इति पदं नकारान्तपदम्. स्वामी इति पदं नकारान्तपदं, प्रथमाविभक्त्यन्तरूपं स्वामी, परन्तु तत्र प्रातिपदिकमस्ति स्वामिन्. अत्र ग्रामीणः कं पृष्टवान्? भोजनालयस्वामिनं पृष्टवान्. अत्र भोजनस्य अपि च अल्पाहारस्य समयः कः इति पृष्टवान्। तदा भोजनालये स्वामी किम् उत्तरं दत्तवान्?
प्रातः सप्तवादनतः एकादशवादनपर्यन्तम् अल्पाहारः अस्ति।
अनन्तरं
मध्याह्ने द्वादशवादनतः त्रिवादनपर्यन्तं, सायं पञ्चवादनतः रात्रौ दशवादनपर्यन्तं रात्रिभोजनम् इति।
इत्युक्ते सः स्केड्यूल् उक्तवान्, इत्युक्ते प्रातः सप्तवादनतः एकादशवादनपर्यन्तम् अल्पाहारं ददामि, यदि भवान् खादितुमिच्छति चेत् खादतु, मध्याह्ने द्वादशवादनतः त्रिवादनपर्यन्तं भोजनम् अत्र परिवेषयति, अपि च सायङ्काले पञ्चवादनतः रात्रौ दशवादनपर्यन्तं रात्रिभोजनं ददामि, यदि भवान् इच्छति चेत् खादतु। अत्र समयः कः इति पृष्टवान्, तदर्थं सः कदा आरभ्य कुत्र पर्यन्तं सः भोजनं ददाति इति सः उक्तवान्। अनन्तरं ग्रामीणः एतस्य श्रवणानन्तरं ग्रामीणः किं पृष्टवान् वदतु।
सर्वकाले अहं भोजन अल्पाहार रात्रिभोजनं करोमि
चेत्
तर्हि अहं कदा नगरदर्शनं यामः?
इत्युक्ते महाशय, यदि एतावान् कालः अल्पाहारार्थं मध्याह्ने भोजनार्थं रात्रिभोजनार्थं भवति चेत् तदा तर्हि मम नगरदर्शनं कदा भविष्यति इति उक्तवान्। इत्युक्ते अत्र विनोदं किं भगिनि, विनोदः कः वदतु?
सर्व all the time if I'm meeting, then when is the time for me to go out and see them?
तदेव अत्र विनोदः। इत्युक्ते अन्येषां कृते अहं भोजनं ददामि, अहं भोजनं परिवेषयामि, परन्तु यावत्पर्यन्तम् अहं ददामि तावत्पर्यन्तं भवान् खादनेव अत्र एव तिष्ठतु इति तत्र अर्थः तथा न भवति। अत्र किमित्युक्ते तावत्पर्यन्तम् अहं भोजनं ददामि, परन्तु भवान् यदा इच्छति तदा भोजनं कृत्वा बहिः गच्छतु। परन्तु ग्रामीणः सः न अवगतवान्, तदर्थं तथा उक्तवान्। अनन्तरं अत्र इतोपि अन्यः अभ्यासः अपि अस्ति। अत्र उमाशङ्करमहोदय भवान् पठतु, अत्र किञ्चन गीताशिबिरं प्रवर्तते। उमाशङ्करमहोदय कर्तुं शक्नोति वा? अत्र करपत्रमस्ति, करपत्रं प्रथमं करपत्रं
नास्ति।
अस्तु, नो चेत् अत्र सुचित्रा भगिनी भवती पठतु अत्र। अभ्यासः
किञ्चन गीताशिबिरं प्रवर्ते, तस्य समयसारिणी अत्र अस्ति, तथा दृष्ट्वा कदा किं प्रवर्ते इति लिखत्।
अत्र पश्यतु भगिनि, किञ्चन गीताशिबिरं प्रवर्तते, तत्र प्रवर्तते इति पदमस्ति, तस्य समयसारिणी अत्र अस्ति, तत् दृष्ट्वा कदा किं प्रवर्तते इति लिखत. अत्र किञ्चन इति दत्तमस्ति, भवती श्रुतवती वा किञ्चन इति पदम्? अत्र किमर्थं किञ्चन इति दत्तमस्ति वक्तुं शक्नोति वा?
किञ्चन
अत्र पश्यन्तु, सर्वे पश्यन्तु, अत्र किञ्चन इति पदमस्ति. किमर्थम् इत्युक्ते अत्र शिबिरम् इति पदं नपुंसकलिङ्गपदं, तदर्थं पदं नपुंसकलिङ्गपदम् अस्ति चेत् किञ्चन इति वदामः. यदि अत्र पुरुषः इति दत्तमस्ति चेत् कश्चन पुरुषः इति वदामः. यदि स्त्रीलिङ्गपदं यथा महिला इति अस्ति चेत् काचन महिला इति वदामः. परन्तु अत्र पदमस्ति गीताशिबिरं, नपुंसकलिङ्गपदम्, अतः किञ्चन गीताशिबिरम्. अत्र किञ्चन इत्युक्ते सम् अत्र एकं शिबिरं प्रवर्तते. प्रवर्तते इति श्रुतवती वा भगिनी? प्रवर्तते इत्युक्ते किम्?
प्रेसेण्ट् इयर् प्रवर्तते सम् ऐ काण्ट् एक्स्प्लेन् इट् भगिनी.
प्रवर्तते प्रवर्तते इत्युक्ते संस्कृतभाषायां कानिचन पदानि सन्ति, यथा भवती जानाति एव अस्ति अथवा भवति अथवा अन्यानि पदानि सन्ति, विद्यते, वर्तते, तथा एव प्रवर्तते. अत्र अत्र अस्ति इति अर्थः. प्रवर्तते इत्युक्ते प्रचलति अथवा अस्ति इति अर्थः. देर् इस् वन् गीताशिबिरं अत्र प्रवर्तते इत्युक्ते अत्र वर्तते इति पदमस्ति संस्कृतभाषायां. वर्तते इत्युक्ते अस्ति इति अर्थः. परन्तु अत्र प्रा इति उपसर्गः, प्रा योगः वर्तते, प्रवर्तते. अत्र किञ्चित् गीताशिबिरं प्रवर्तते, तस्य समयसारिणी अत्र अस्ति इत्युक्ते किम्?
समयसारिणी लिस्टिङ्ग् आफ् टैमिङ्ग्स्, टैम् लिस्टिङ्ग् आफ् द टैम्स् आर् टैम् टेबल्.
टैम् टेबल् समयसारिणी इत्युक्ते टैम् टेबल् अत्र अस्ति. तद् दृष्ट्वा इत्युक्ते समयसारिणीं दृष्ट्वा कदा किं प्रवर्तते इति लिखत. इत्युक्ते बै लुकिङ्ग् अट् द टैम् टेबल् यु आर् सपोस् टु रैट् सम् सेण्टेन्सेस्. कदा किं प्रवर्तते इत्युक्ते अत्र गीतापारायणमस्ति, गीताप्रवचनं भवति, अपि च गीताध्ययनमस्ति, गीतापारायणमस्ति. परन्तु कदा भवति? कदा आरभ्य योगासनं प्रचलति, कदा आरभ्य गीताप्रवचनं प्रचलति इति अत्र दत्तमस्ति. अत्र उदाहरणं वाक्यं पठतु.
वर्गे षट् वादनतः सप्तवादनपर्यन्तं योगासनं प्रचलति.
अग्रिमम्
नव वर्गे नववादनतः दशवादनपर्यन्तं गीतापारायणं प्रचलति.
पारायणं
पारायणं प्रचलय प्रचलति
प्रचलति उत्तमम्. अनन्तरम् अग्रिमं, धन्यवादः भगिनी, अग्रिमं वाक्यं गीता कादम्बरी भगिनी भवती वदतु.
अस्तु भगिनि, एतस्य श्रवणानन्तरं सः ग्रामीणः पृष्टवान्.
भगिनि 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 तदभवत् वयम् अधुना किञ्चन गीताशिबिरं प्रवर्तते, अग्रिमम् अभ्यासं कुर्मः. अग्रिमम् अत्र अग्रिमम् अभ्यासं करोतु. वर्गे
वर्गे षट् वादनतः सप्तवादनपर्यन्तं योगासनं प्रचलति.
अनन्तरं किं भवति गीताशिबिरे?
वर्गे एकादशवदनतः
द्वादश
द्वादश द्वादश द्वादनपर्यन्तं गीताप्रवचनं प्रचलति.
अग्रिमम् वर्गे
वर्गे त्रयोदश
वर्गे त्रयो त्रयो त्रिवादन त्रिवादनतः
चतुर्वादनपर्यन्तं सम्भाषणवर्गः.
वदतु भगिनी, कादम्बरी भगिनी वदतु वदतु.
चतुर्वादन पर्यन्तं सम्भाषणवर्गः प्रचलति.
अन्तिमं
सप्तवादनतः अष्टवादनपर्यन्तं गीतोपन्यासः प्रचल गीताध्यायनं वर्गे पञ्चवादनतः षट् वादनपर्यन्तं गीताध्ययनं प्रचलति.
उत्तमं, गीताध्ययनं प्रचलति. यदि भवती इच्छति चेत् षष्ठं वाक्यमपि वक्तुं शक्नोति. षष्ठं वाक्यं वदतु. इच्छति चेत् अत्र गीतोपन्यासः इति अपि वदतु.
अस्तु, वर्गे सप्तवादनतः अष्टवादनपर्यन्तं गीतोपन्यासः प्रचलति.
उत्तमं भगिनि, उत्तमम्, सुन्दररीत्या उक्तवती. परन्तु अत्र विषयः कः इत्युक्ते, अत्र प्रचलति इति दत्तमस्ति. परन्तु पश्यतु भगिनि, अत्र वाक्येषु एतेषु वाक्येषु कर्मपदं नास्ति. किमर्थं चेत् अत्र सम्भाषणवर्गः प्रचलति इति दत्तमस्ति. इत्युक्ते अत्र प्रचलति इति पदम् अकर्मकक्रियापदं, तदर्थं तत्र कर्मपदं नास्ति. परन्तु अत्र पश्यतु, गीताध्ययनं प्रचलति, गीताप्रवचनं प्रचलति, गीतापारायणं प्रचलति, अथवा सम्भाषणवर्गः प्रचलति इति दत्तमस्ति. इत्युक्ते अत्र कर्मपदं नास्ति. अत्र एकस्मिन् अत्र गीताशिबिरे एकस्मिन् गीताशिबिरे एतानि सर्वाणि कार्याणि प्रचलन्ति. कदा कदा किं भवति इति अत्र दत्तमस्ति. तदनन्तरम् अत्र गीतापुस्तके कुत्र कुत्र कीदृशश्लोकाः सन्ति इति दत्तमस्ति. अग्रिमभ्यासः तदेव. अत्र लक्ष्मीभगिनी भवती पठतु, कः पर्यन्तम् इति योजयित्वा लिखतु इति दत्तमस्ति.
द्वितीयाध्यायस्य पञ्चपञ्चाशत् तमश्लोकतः एकाषष्टितमश्लोकपर्यन्तं स्थितिप्रज्ञलक्षणा अस्ति, लक्षणमस्ति.
लक्षणमस्ति. यदि भवन्तः सर्वे भगवद्गीता पुस्तकं पश्यन्ति चेत् तत्र भगवद्गीतायां 700 श्लोकाः सन्ति. इत्युक्ते अप्राक्सिमेट्लि देर् आर् 700 श्लोकाः. परन्तु अत्र किं दत्तमस्ति, द्वितीयाध्यायस्य 55 एकषष्टितमश्लोकपर्यन्तं किं किमस्ति तत्र स्थितप्रज्ञलक्षणमस्ति. इत्युक्ते किम् इत्युक्ते अत्र स्थितप्रज्ञः इत्युक्ते कः, इत्युक्ते तस्य लक्षणं किम्. अत्र एकः श्लोकः अस्ति, स्थितप्रज्ञस्य का भाषा. तत्र एकः श्लोकः अस्ति भगवद्गीतायां, स्थितप्रज्ञस्य का भाषा, समाधिस्तस्य केशव, स्थितधि किं प्रभाषेत, किमासीत व्रजेत किम्. इत्युक्ते स्थितप्रज्ञः इत्युक्ते कः, सः कीदृशरीत्या वदति, तस्य प्रवृत्तिः कीदृशी, तस्य व्यवहारः कः, सः कथं चलति, कथं भाषते. स्थितप्रज्ञः इत्युक्ते कः, इत्युक्ते भगवद्गीतायां स्थितप्रज्ञः, दट् मीन्स् वाट् आर् द केरेक्टरिस्टिक्स् आफ् ए स्थितप्रज्ञा, दट् वास् गिवन् इन् बिट्वीन् दीस् श्लोकास्, स्टार्टिङ्ग् फ्रम् चाप्टर् सेकेण्ड् इन् द सेकेण्ड् चाप्टर् 55th श्लोक आरभ्य 61 श्लोकपर्यन्तं स्थितप्रज्ञलक्षणम् उक्तमस्ति भगवद्गीतायां. अनन्तरं किं द्वितीयं वाक्यं,
द्वादशोऽध्यायस्य त्रयोदशतमश्लोकतः सप्तदशश्लोकपर्यन्तं भक्तलक्षण.
अत्र किम् उक्तवती भवती, 19 इति उक्तवती, अथवा 21 इत्यपि समीचीनम्. 21 द्वितीयाध्यायस्य अत्र 12 त्रयोदशश्लोकतः 21 किमस्ति. In the 12th chapter, in the 12th chapter, what was given?
Bhakti Yoga.
Bhaktanam lakshanani kani. Bhakta lakshanam apti. Kutaha arabhya? Dvadashadhyayasya trayodasha shloka taha arabhya? Ekona vimshatitama shloka paryantam. Ichukte bhaktasya lakshanani kani. इति दत्तमस्ति भगवद्गीतायाम्. अनन्तरं किं,
षोडशोऽध्यायस्य
प्रथम इति वदामः,
प्रथमश्लोकतः त्रिश्लोकपर्यन्तं
तृतीय इति वदामः,
तृतीयश्लोकपर्यन्तं दैहि सम्पत्
उक्तमस्ति इत्युक्ते अत्र पश्यन्तु अत्र द्वितीया प्रथमम् उदाहरणं वाक्यमस्ति अत्र द्वितीयाध्यायः भवती जानाति वा श्रुतवती वा द्वितीयाध्यायस्य नाम किं जानाति चेत् वदतु अन्येषां कृते साङ्ख्ययोगः भगवद्गीतायां द्वितीयाध्यायस्य नाम साङ्ख्ययोगः अपि च द्वादशाध्यायस्य नाम किं
भक्तियोगः
सुन्दरं भक्तियोगः सुन्दरम् अनन्तरं षोडशाध्यायस्य नाम किं जानाति चेत् वदतु वदामि अहं वदामि अत्र षोडशाध्यायस्य नाम अस्ति दैवासुरसम्पद्विभागयोगः चतुर्थं वाक्यं वदतु
दशमोऽध्यायस्य विंशतितमश्लोकतः एकचत्वारिंशत्पर्यन्तं ईश्वरस्य विभूतयः उक्ताः
उत्तमम् अत्र दशमाध्यायस्य इति वदामः दशमोक तथा नास्ति दशमाध्यायस्य विंशतितमश्लोकतः एकचत्वारिंशत्तमश्लोकपर्यन्तम् ईश्वरस्य विभूतयः उक्ताः इत्युक्ते अत्र दशमाध्यायस्य नाम किं भगिनि वक्तुं शक्नोति वा विभूतियोगः इत्युक्ते विभूतियोगः दशमाध्यायस्य नाम तस्मिन् अध्याये किं दत्तमस्ति तस्मिन् अध्याये ईश्वरस्य विभूतयः उक्ताः इत्युक्ते ईश्वरः कुत्र कुत्र वसति अथवा ईश्वरस्य विभूतिः वयं कुत्र कुत्र द्रष्टुं शक्नुमः इति तस्मिन् अध्याये दत्तमस्ति पञ्चमं वाक्यम्
एकादशाध्यायस्य दशम श्लोकतः त्रयोदश श्लोकपर्यन्तं विश्वरूपदर्शनं
इत्युक्ते अत्र एकादशाध्यायस्य दशमश्लोकतः त्रयोदशतमश्लोकपर्यन्तं विश्वरूपदर्शनं अत्र एकादशाध्यायस्य नाम किम् जानाति चेत् वदतु तदेव इत्युक्ते एकादशाध्यायस्य नाम अस्ति विश्वरूपसन्दर्शनयोगः तदेव तस्य नाम अत्र अवधेयम् इति दत्तमस्ति अवधेयं किं पठतु
तः पर्यन्तम् इत्यस्य एतादृशाः प्रयोगाः अपि भवन्ति हिमालयतः कन्याकुमारीपर्यन्तं भारतम् अस्ति आरम्भतः अन्तपर्यन्तं भगवद्गीतां
पठतु पठतु इत्युक्ते इदानीं पर्यन्तं वयं तः पर्यन्तम् इति पदद्वयस्य उपयोगं कुत्र कुत्र भवति उपयोगः भवति इति वयं ज्ञातवन्तः इतोपि अन्यत्र कुत्र तस्य उपयोगः भवति इति अत्र उक्तमस्ति हिमालयतः कन्याकुमारीपर्यन्तं भारतम् अस्ति तथा एव आरम्भतः अन्तपर्यन्तं भगवद्गीतां पठन्तु सर्वे अत्रापि सः अपि च पर्यन्तम् इति पदद्वयं योजयित्वा वाक्यद्वयं रचितमस्ति उत्तमम् अधुना वयम् अभ्यासपुस्तके एकं अत्र सर्वे अत्र सप्तचत्वारिंशत्तमे पुटे इत्युक्ते पेज् 47 पश्यन्तु. अत्र एकः अभ्यासः अस्ति, तम् अभ्यासं कृत्वा समापयामः. सप्तचत्वारिंशत्तमे पुटे अत्र अद्य आरभ्य इति अस्ति. अत्र उमाशङ्करमहोदय भवान् करोतु, अत्र किम् उक्तमस्ति अभ्यासपुस्तके?
माला गोपाल भवतः परीक्षा समीपम् आगता अस्ति. अद्य आरभ्य प्रतिदिनं पठतु.
अत्र पश्यतु महोदय, अत्र गोपाल इति दत्तमस्ति, तस्य विभक्तिः का वदतु?
गोपाल सम्भाषण
सम्बोधनं सम्बोधनम् अत्र इत्युक्ते अत्र मालागोपालयोः सम्भाषणं दत्तमस्ति. अत्र अत्र गोपाल भवतः परीक्षासमीपम् आगता अस्ति, अद्य आरभ्य प्रतिदिनं पठतु इति उक्तमस्ति. तदा गोपालः किं वदति? राजीव् सिङ्ग् महोदय भवान् पठतु अत्र.
गोपालः, अद्य अहं मित्रस्य गृहं गच्छामि, श्वः आरभ्य पठिष्यामि भगिनी.
इत्युक्ते किम्?
Today I will go to my friend's house. Tomorrow I will start studying. Aham.
Tadeva.
Adhya.
Ichukte atra bhagini iti padam dattam asti. Tasya rupam kim?
Bhagini, it's strilinga.
Strilinga. Parantu atra sambodhana
rupam. Yes, sambodhana rupam.
सम्बोधनरूपं. यदि सम्बोधनरूपं नास्ति चेत् तत्र दीर्घ ईकारः भवति.
भगिनी,
भगिनी इति अस्ति चेत् प्रथमाविभक्त्यन्तरूपं, परन्तु भगिनी इति दत्तमस्ति चेत् अत्र सम्बोधनरूपं. सः किं वदति इत्युक्ते भगिनीं प्रति गोपालः वदति, अहम् अद्य मित्रस्य गृहं गच्छामि, श्वः आरभ्य पठिष्यामि, अद्य न पठामि, श्वः आरभ्य अहं पठिष्यामि. अनन्तरं किं भवति? अत्र उमाशङ्करमहोदय अग्रिमं वाक्यं पठतु.
माला, भवतु गोपाल विद्यालये योगासनकक्षायाः कदा आरभ्य भविष्यति?
गोपाल विद्यालये योगासनकक्षा कदा आरभ्य भविष्यति? तस्य उत्तरं किं? राजीव् महोदय पठतु.
गोपालः परश्वः आरभ्य भविष्यति.
परश्वः आरभ्य किं भविष्यति?
योगासनकक्षः.
योगासनकक्षा भविष्यति. कदा भविष्यति?
परश्वः आरभ्य.
परश्वः आरभ्य भविष्यति. उत्तमं. तदा माला किं वदति? वदतु महोदय, अत्र उमाशङ्करमहोदय पठतु.
परश्वः मम अवकाशः न भविष्यति. परश्वः आरभ्य अहमपि योगासनकक्षाम् आगमिष्यामि.
इत्युक्ते अत्र माला वदति, अत्र गोपालः भ्राता, माला भगिनी. अत्र माला गोपालयोः मध्ये सम्भाषणमस्ति. अधुना माला वदति, अहमपि आगच्छामि, परश्वः मम अवकाशः न भविष्यति. अत्र वयं पूर्वमेव पठितवन्तः श्वः, परश्वः, प्रपरश्वः, ह्यः, परह्यः, प्रपरह्यः इति वयं दृष्टवन्तः. अत्र उमाशङ्करमहोदय वदतु, श्वः इत्युक्ते किं?
श्वः टुमारो.
परश्वः?
परश्वः डे आफ्टर् टुमारो.
प्रपरश्वः?
यस्टर्डे.
न न, प्रपरश्वः
डे आफ्टर् डे 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 आफ्टर् टुमारो.
डे डे आफ्टर् टुमारो. ह्यः? अद्य इत्युक्ते?
अद्य टुडे.
ह्यः?
हेगन्त यस्टर्डे.
परह्यः?
परश्वः डे बिफोर् यस्टर्डे.
प्रपरह्यः?
डे डे यस्टर्डे.
बिफोर् यस्टर्डे. उत्तमम्. इत्युक्ते अत्र माला वदति मम अवकाशः न भविष्यति. अत्र अवकाशः इत्युक्ते किं महोदय?
अवकाशकं
डे.
उत्तमम्. इत्युक्ते विरामः. डे आफ् इत्युक्ते आङ्ग्लभाषायां किं वदामः? राजीव् सिङ्ग् महोदय वदतु.
डे आफ्
इत्युक्ते हालिडे अथवा लीव्. अत्र अवकाशः इति पदस्य अन्य तस्य कृते अन्यं पदमस्ति विरामः. इत्युक्ते माला वदति ह्य परश्वः मम अवकाशः न भविष्यति. इत्युक्ते मम किञ्चित् कार्यमस्ति, तदर्थं परपरश्वः आरभ्य अहमपि योगासनकक्ष्याम् आगमिष्यामि इति सा वदति. अत्र राजसिंह महोदय वदतु, अत्र आगमिष्यामि इति उक्तमस्ति, तस्य लकारः कः?
इट्स् लोट्. लोट् लकार
न महोदय. लोट् लोट् इत्युक्ते अत्र रूपम्. अत्र आगमिष्यामि इत्यस्य रूपं किम्? कालः कः?
फ्यूचर्.
किं वदामः? भविष्यत्कालरूपं.
भविष्यत्कालरूपम्
अथवा लृट् लृट् लकारः इति
वदामः.
लृट् लकारः इति वदामः, नो चेत् भविष्यत्कालरूपं. सा वदति अहं प्रपरश्वः आरभ्य आगन्तुं शक्नोमि. अद्य परश्वः मम विरामः नास्ति, तदर्थम् अहम् आगन्तुं न शक्नोमि, न शक्ष्यामि इति वदति. अधुना गोपालः किं वदति वदतु.
गोपालः भगिनी मातुलसह पत्रम् आगन्तं वा?
मातुलस्य पत्रम् आगतं वा?
इट्स् षष्टि विभक्ति एण्ड् इट्स् मेटर्नल् अङ्को.
मातुलः इत्युक्ते मातुः भ्राता इत्युक्ते संस्कृतभाषायां किं वदामः? मेटर्नल् अङ्कल् इत्युक्ते मातुः भ्राता.
मातुल् भ्राता.
भ्राता इत्युक्ते ब्रदर्. मातुः भ्राता. मातुलस्य पत्रम् आगतं वा इति सा उक्तवती. तदा माला किं वदति?
नैव भोः, अहं परश्वः आरभ्य तस्य प्रतीक्षां कृतवती, परन्तु न आगतम् एव.
सर्वे पश्यन्तु, अत्र विसर्गः अस्ति चेत् एव विसर्गम् उच्चारयन्तु. अत्र आरभ्य इति दत्तमस्ति, तत्र विसर्गः नास्ति. यत्र कुत्रापि विसर्गः नास्ति चेत् मा वदन्तु, विसर्गः अस्ति चेत् मा त्यजन्तु. इत्युक्ते इफ् देर् इस् नो विसर्ग यु आर् नाट् सपोस् टु आड् इट्. इफ् देर् इस् आलरेडि विसर्ग यु आर् नाट् सपोस् टु ओमिट्. you are not allowed to you are supposed to pronounce it if there is a visarga. If there is no visarga, you are not supposed to add it. Atra kim dattamasti aham parahyah arabhya tasya pratiksham krutavati. Kasya pratiksham krutavati? Vadatu mahodaya, Umashankar mahodaya.
Matulasya.
Matulasya patrasya.
Matupatrasya, okay.
मातुलस्य प्रतीक्षा नास्ति अत्र. मातुलस्य पत्रम् इत्युक्ते अत्र पत्रम् इत्युक्ते किम्?
लेटर्.
लेटर् सा वदति अहं परह्यः आरभ्य तस्य प्रतीक्षां कृतवती. कस्य प्रतीक्षां? मातुलस्य पत्रस्य प्रतीक्षां कृतवती, परन्तु पत्रं न आगतम् एव. अत्र राजेशसिंह महोदय, भवान् आङ्ग्लभाषायाम् अनुवादं कृत्वा वदतु एतद् वाक्यम्.
अहं श्वः आरम्भ्य तस्य प्रतीक्षां कृतवती. I've been waiting since yesterday.
For what?
For मातुलस्य पत्रम्.
मातुलस्य पत्रस्य प्रतीक्षां कृतवती अहं, परन्तु पत्रं न आगतम्. अत्र पश्यतु महोदय, नैव इति पदमस्ति. अत्र पदद्वयमस्ति, वदति वा नैव? अत्र नैव इति, नैव इत्यस्मिन् पदे पदद्वयम् अस्ति. इत्युक्ते देर् आर् टु वर्ड्स् इन् दट्, न योगः एव. अत्र न योगः एव, नैव भवति. अत्र सन्धिः अस्ति, सन्धेः नाम अस्ति वृद्धिसन्धिः. वृद्धिसन्धिः तत्र न योगः एव, नैव इति भवति. उत्तमम्. इदानीं कालातीतः अभवत्, परन्तु अस्माकं पार्श्वे एका अन्या कथा अपि अस्ति, मूर्खाः शुकाः. परन्तु वयं सर्वे अत्र अग्रिमे सप्ताहे मिलित्वा तां कथां पठिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः, नमस्कारः.
धन्यवादः भगिनी, नमस्कारः भगिनी,
नमस्कारः.